षट्पञ्चाशत् सर्गः। ततस्तु शिंसुपामूले जानकीं पर्युपस्थिताम् अभिवाद्य अब्रवीद्दिष्ट्या पश्यामि त्वाम् इहाक्षताम्। ततस्तु शिंसुपामूले जानकीं पर्युपस्थिताम् अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्। ततस्तं प्रस्थितं सीता विक्रमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत। काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्नः यशस्यस्ते बलोदयः। शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्। तद्यथा तस्य विक्रान्तम् अनुरूपं महात्मनः भवत्याः वसूरस्य तथा त्वमपवादय। तदर्थोपहितं वाक्यं प्रसृतं हेतुसंहितं निशम्य हनुमांस्तस्याः वाक्यमुत्तरमब्रवीत्। क्षिप्रमेष्यति काकुत्स्थो हरवृक्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति। एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्। ततः स कपिशार्दूलः स्वामी सन्दर्शनोत्सुकः आरुरोह गिरिश्रेष्ठम् अरिष्टम् अरिमर्दनः तुङ्गपद्मकजुष्टाभिः नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः उन्मिषन्तमिवोद्धूतैः लोचनैरिव धातुभिः तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् प्रगीतमिव विस्पृष्टैः नानाप्रस्रवणस्वनैः देवदारुभिरत्युच्चैः ऊर्ध्वबाहुमिव स्थितम् प्रपातजलनिर्घोषैः प्राकृष्टमिव सर्वतः वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः निःश्वसन्तमिवामर्षात् घोरैरासीविषोत्तमैः निहारकृतगम्भीरैः ध्यायन्तमिव गह्वरैः मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः कूटैश्च बहुधा कीर्णैः शोभितं बहुकन्दरैः सालतालाश्वकर्णैश्च पङ्कैश्च बहुभिर्वृतः न लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् नानामृगगणाकीर्णम् धातुनिष्यन्दभूषितम् बहुप्रस्रवणोपेतम् शिलासञ्चयसङ्कटम् महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् लतापादपसङ्घातम् सिंहाध्युषितकन्दरम् व्याघ्रसङ्घासमाकीर्णम् स्वादुमूलफलद्रुमम् तमारुरोह हनुमान् पर्वतम् पवनात्मजः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः तेन पादतलाक्रान्तारम्येषु गिरिसानुषु सघोषाः समसीद्यन्त शिलाश्चूर्णीकृतास्ततः। सतमारुह्य शैलेन्द्रम् व्यवर्धत महाकविः दक्षिणादुत्तरम् पारम् प्रार्थयन् लवणाम्भसः अधिरुह्य ततो वीरः पर्वतम् पवनात्मजः ददर्श सागरम् भीमम् मीनोरगनिषेवितम् समारुत इव आकाशम् मारुतस्यात्मसम्भवः प्रपेदे हरिशार्दूलो दक्षिणादुत्तराम् दिशम्। स तदा पीडितस्तेन कपिना पर्वतोत्तमः रराससहतैर्भूतैः प्रविशन् वसुधातलं कंपमानैश्च शिखरैः पतद्भिरपि च द्रुमैः तस्योरुवे गोन्मथिताः पादपाः पुष्पशालिनः निपेतुर्भूतले रुग्णाः शक्रायुधहता इव कन्दरान्तरसंस्थानां पीडितानां महौजसां सिंहानां निनदो भीमो नभो भिन्दन् सशुश्रुवे स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः विद्याधर समुत्पेतुः सहसाधरणीधरात् अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषः निपीडितशिरोग्रीवा व्यवेष्टन्तमहाहयः किन्नरोरगगन्धर्व यक्षविद्याधरस्तदा पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः स च भूमिधर श्रीमान् बलिना तेन पीडितः स वृक्ष शिखरोदग्र प्रविवेश रसातलम् दशयोजनविस्तारः त्रिंशद्योजनमुच्छ्रितं धरण्यां समतां यातः स बभूव धराधरः सलिलङ्गयिषुर्भीमं सलीलं लवणार्णवं कल्लोलास्फालवेलान्तम् उत्पपात नभो हरिः सलिलङ्गयिषुर्भीमं सलीलं लवणार्णवं कल्लोलास्फालवेलान्तम् उत्पपात नभो हरिः इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे षट्पञ्चाशः सर्गः आपदामपहर्तारं दातारं सर्वसम्पदा लोकाभिरामं श्रीरामं भूयो भूयो नमः धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि पौरुषे चाः प्रतिद्वन्द्वः किमे शरैनं जहि रावणिं श्रीरघुनन्दनवरब्रह्मणे नमः
हनुमान् केम् टु अशोक फारेस्ट् अण्ड् सा सीता सेफ् अण्डर् दि ट्री Sinsupa tree. And he felt very happy and he did Namaskara and Parikrama also to Sita and said, Mom, you are safe. I'm glad. That's it. And then Sita saw Hanuman and said, Hanuman, single person you are enough to take care of the entire Lanka. I gained confidence. All alone you can do every job. Yet I expect Rama to come here and throw his arrows and kill Ravana. And if he takes me, it's a prestigious act of Rama on his part. So let him do that. Please do it at a fast rate. And then Hanuman said, Ma, be happy. Whatever is to be done, it was done. Until Rama's arrival, nothing serious will happen, you know. For these people to come out of this surprise, it takes a little while. Meanwhile, Rama will be entering Lanka, okay? So don't worry. And Rama, along with all of them, soon reaching Lanka and bringing you out of this pain, sorrow, miseries. Now, please permit me. And he took Parikrama to Sita. And there was a big mountain having 30 yojanas of width and 10 yojanas of height. And he went up to that Mount Arishtam. And from there, then he just took a leap and started crossing through the sea. Earlier, while he was going to Lanka, there were a few hurdles, right? So it took for him a little time to reach Lanka, because he was to satisfy Mainaka there, satisfy Surasa there, and again just tear off the Simhika. So all these things just ate away his time. But now, he's free. Everything is just clear. So he just started moving ahead in the seas.